अयमिह प्रथमोधाजिधातृभिर्होता यजिष्ठो अध्वरेष्वीड्याः यमप्लवानो भृगोविर्विचर्मणेषु चित्रम् विभ्वम् विषेविषे अग्ने कदाचारुणद्भुवद्देवस्य चेतनम् अधाहित्वा जगृभ्यरेवर्तासो विक्ष्वीड्यम् ऋतावानम् विचेतसम् पश्यन्तोद्यामि वस्तृभिः विश्वे रामध्वराणाम् हस्कर्तारम् दमे आशुम् दूतम् विवस्वतो विश्वायश्चर्षणीरभि आरभ्रः केतुमाजवो भृगवानम् विषेवीषे तमीम् गोतारमारुषश्चीरित्वाम् सन्निषेधिरे रण्वम् पावकसोचिषम् यजिष्ठम् सप्तधामभिः तम् सरस्वतीषु मादृषु वराभीतमश्रितम् चित्रम् सन्तम् गुहाहितम् सुवेदम् गोचिरथिलम् सहस्रयद्वियुदासस्मिन्मूधम् कृतस्य धामम् देवाः महाग्निर्नमसा रातहम् व्यो मेरध्वराजसमि धृता वा मेरध्वरस्य दूत्यानि विद्वानुभे अन्तारोदसी सञ्चिकित्वान् दूतयीयसे प्रतिव पुराणो विदुष्टरो दिव आरोधनानि कृष्णन्तये मनुषतः पुरोभाश्च हृष्मा अर्चर्वपूषामिदेकम् यत प्रवीता दधदेहगर्भम् सद्यश्चिज्जातो भवसीदु दूतः सद्यो जातस्य ददृशा नमोजो यदस्य वातो अनुपाति शोचिः मृणक्ति जिग्मामदशेषु जिह्वाम् शिराजगन्नादयते विजम्भैः त्रिषु जगन्नाः त्रिषु महावक्ष त्रिषु दूतम् कृणुते यह्वो अग्निः वातस्य मेलिम् सजते निजूर्वम् नासुम् न वा जयते हिन्वे अर्वाः